अयम् सोमा इन्द्रतुभ्यम् सुन्वेतुभ्यम् भवते त्वमस्य पाहि त्वम् हयम् च गृषेर्वम् वा वृषयिन्दुम् मदायुज्याय सोमम् सरीन्द्रसो न भूरिषालयोजिमः पुरूणि सातदेवसूनि आधीम् विश्वानभुष्याणि जाता स्वर्षातापन भूर्ध्वानवन्त वायुर्नयो नियुत्वाङ्गिष्टया मानाः सत्ये बहवः सम्भविष्टः विश्वारोद्रविनोदायी पद्मन्भूषेव धीजव नोऽसि सोम इन्द्रो नयो महाकर्मा निजग्रहन्दारुद्राणामसि सोमभूद्भिः वैद्वो नहि त्वमहीनाम्नाम् मन्दा विश्वस्यासि सोमदस्योः अद्यर्नयो वन आसृज्यमानो वृथा पादांसि कृणुते नदीषु जनो न युद्ध्वा महदवो बद्धिर्यत्ति सोमपवमानभूर्मिम् एते सोमाधिवारान्यव्या दिव्यानवोषासो अभ्रवर्षाः सा समुद्रम् सिन्धभो न नीतिः सुदासो अभिकलसान्नसृग्रन् सुष्मेशर्धो न मालोदम् भवस्तानभिसस्ता दिव्याय साविट् आपो न भक्षो मतिर्भवानः सहस्रात्सा मृतराशान्नयज्ञः राज्ञो नु देवरो नश्च व्रतानि बृहद्गाभीरम् सोमधाम ज्येष्ठवासि प्रियो न विक्रो दक्षार्यो अर्यमेवासि सोमा